प्रत्यक्षेवस्वभीषजं जरदष्टिं प्रणोमि त्वा स्तुतामया वरदा वेदमाता प्रचोदयन्ता।
अथर्ववेदः
हिरण्यगर्भः शत्रुघ्नः।